सदा कल्पवृक्षस्य तस्यादिमूले भवद्भावबुद्ध्या सपर्यादि सेवा नृणानां कुर्वता भुक्तिमुक्तिप्रदन्तम् नमोमीश्वरं सद्गुरुं साईनाथं नमामीश्वरं सद्गुरुं साईनाथं।